सहना भवतु सहनो भुनक्तु
सहनो भुनक्तु
सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः
शान्ति शान्ति शान्तिः
So we have Anjana Bhagini, we have Sangeeta Bhagini, Sujata Bhagini, Vimla Bhagini and Bhanumati Bhagini. So we can do the Sura Subodha. Can I request Sujata Bhagini to start off with first two lines.
Okay.
Pankti Dvayam Gayatu Bhagini.
Bhagini. Astu. Surasa Subhoda Viswa Manogna Lalita Hrudya Ramaniya अमृतवाणी संस्कृत भाषा नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना
समीचीनम् संगीता भगिनी नेक्स्ट टू लाइन
कवि कोकिल वाल्मीकि विरचिता रामायण रमणीय कथा अतीव सरला मधुर मंजुला नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना
समीचीनम् गायन सह गीतवती भगिनी बहु समीचीनम् भानुमती भगिनी भानुमती भगिनी न श्रूयते न श्रूयते भगिनी अस्तु अञ्जना भगिनी
व्यास विरचिता गणेश लिखिता महाभारत
चिन्ता मास्तु
चिन्ता मास्तु
कृष्ण महोदय नेक्स्ट टू लाइन्स
कुरुक्षेत्रम् समुलाङ्गन गीतावन्दिता भगवत् विश्ववन्दिता भगवत् गीता अमृतमधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना
बहु समीचीनम् विमला भगिनी लास्ट् टू लाइन्स्
कवि कुल गुरु नवर सोमेश जारुत ऋतु रघु कुमार कविता विक्रम शाकुंतल मालविका नैव क्लिष्टा न च कठिना
धन्यवाद आई थिंक नाउ इफ वी ट्राई वन डे नॉट टुडे It might go in LA, hopefully, but we will try one day. Next time, we will practice two people at a time, and then include more slowly. So let's see. So today we are going to do all forms of Shashti Vibhakti, and this is going, even if you know Shashti Vibhakti, I believe that it will be quite useful to go through all the endings and its usage. So one thing we have to remember, that there are 7 vibhaktis or 8 vibhaktis including Sambodhan, but if we don't include Sambodhan, the Shashti Vibhakti is very different from all other vibhaktis. It is a possessive case, so you could just use it not in the same form as other vibhaktis. I will go into more detail when we go through the other vibhaktis. Let's do little bit of abhyas first. So here, chitram drishtva ke vastuni atra santi. So first of all, we have to see, look at the this picture and see what you can see. So KK, what you can see here. So let's start with Anjana Bhagini. Can you see any object that you can see?
Hello. Wow, so much noise. I couldn't hear you properly because it was background noise.
So let's move on to Bhanumati Bhagini. Bhanumati Nashwade, Sangeeta Bhagini.
Ramasya Mala.
Eka Mala Asti.
Eka Dhanuhu Asti.
Mala Asti. And what is this?
Oh, I don't remember.
Let's go to the next one. Ramaha Asti. Dhanuhu Asti. First of all, we can say Ramaha Asti, Mala Asti, Dhanuhu Asti. Then we can say Ramasya Dhanuhu Asti. Ramasya Dhanuhu Asti. Ramasya Mala Asti. Ramasya Vastram Asti. Ramasya Vanaha Asti. Ramasya Abharnam Asti. Ramasya Karna Kundalaha Asti. Ramasya Kiritinam Asti. Ramasya Netrau Asti. So anything you can use to do the possessive case. Ramasya. So we have to use, when it's akaranta, pullinga shabdaha, then we use रामस्य रामस्य Somebody is playing some music or singing some shlokas. Can we mute that, please? So, vrikshaha, vrikshasya. Vrikshaha, vrikshasya. Vrikshaha api pulinga shabdaha asti. So, vriksha, vrikshaha, vrikshasya. So, let's try few shabdaha, huh? And then we can make some sentences out of it. So I will go in order. Bhanumati Bhagni, can you try to say this time? Last we had some problem with your mic last time as well. Krishkaha, Krishha. So Sangeeta Bhagni, punha vadatu.
कृषकस्य कृषकस्य सैनिकस्य
कृषकस्य अंजना भगिनी आरक्षकः
आरक्षकस्य
समीचीनम् सुजाता भगिनी
आम् भगिनी वैद्यस्य
वैद्यस्य विमला भगिनी
चित्रकारस्य
समीचीनं नरेश महोदय
आर्वहस्य
समीचीनं कृष्ण महोदय
चर्मकारस्य
चर्मकारस्य रमेश महोदय
तंत्रज्ञस्य
समीचीनं तंत्रस्य सो यू कैन सी एनीवे ऑन द स्क्रीन इफ आई हाईलाइट योर नेम यू कैन स्पीक सो नाउ वी कैन से रामः कन्दुकः रामस्य कन्दुकः रामस्य कन्दुकः अस्ति और रामस्य कन्दुकः नास्ति डिपेंड्स वेदर इट इज देयर और नॉट देयर सो Let's read one of these sentences and then we will do. I will try with Bhanumati Bhagini again if it works. But Bhagini, do you want to try? No. Okay, Sangeeta Bhagini.
Gopalakasya Griham Satra Asti.
समीचीनं गोपालकः कस्य गृहं तत्र अस्ति अत्र अस्ति तत्र अस्ति वि डिड् लास्ट् टैम् अत्र तत्र सर्वत्र एकत्र अन्यत्र सो यू कुड् ओल्सो से गोपालकः गोपालकस्य गृहम् अन्यत्र अस्ति बिकास् वि डोण्ट् नो अञ्जना भगिनी ट्रै विद् गणेशः मूषिकः
गणेशः मूषकः नियर् वाट् केन् यु से नियर् अस्ति
समीपे
समीपे गणेशः समीपे मूषकः अस्ति
पुनः वदतु भगिनि गणेश
गणेशस्य मूषकः समीपे अस्ति
गणेशस्य समीपे मूषकः अस्ति गणेशस्य वाहनं मूषकः अस्ति
गणेशस्य वाहनं वाहनं
रामस्य वाहनं मूषकः अस्ति वा? रामस्य वाहनं मूषकः नास्ति. समीचीनं. कृष्णमहोदय, कृष्णमहोदय, स्कन्धः मयूरः.
स्कन्धस्य वाहनं मयूरः अस्ति.
When we speak in Sanskritam, we have to be very clear on the pronunciation. So it's not to anybody, but just there is like little bit more effort when we speak in Sanskritam. The sometimes when we are speaking English, you can say things without even opening your mouth properly. But with the Sanskritam, we have to be very, like, we should open our mouth, like, so that the correct sounds do come. So, just something that I wanted to say. Sujata Bhagini, next line.
Astu Bhagini. Kan slokasya chandaha. श्लोकस्य छन्दस् अस्ति. छन्दस् अस्ति छन्दः
छन्दः अस्ति श्लोकस्य
छन्दः
छन्दः अनुष्ठप् अस्ति. यु कुड् से लैक् दट् इट्स् एट् बीट् श्लोकस्य छन्दः अस्ति श्लोकस्य छन्दः अनुष्ठप् अस्ति अनुष्ठम् अस्ति. विमला भगिनि.
वृक्षः बिलं वृक्षस्य बिलम् अस्ति. आर् डीप् मीन्स् वाक्यने समयं वृक्षस्य बिलम्
एकस्य वृक्षस्य बिलं दीर्घः अस्ति.
वृक्षस्य बिलं दीर्घः अस्ति.
वृक्षस्य बिलं दीर्घम्
वृक्षस्य बिलं दीर्घम्
अस्ति. अस्तु कृष्णमहोदय, नरेश महोदय.
कामदेवस्य बाणः अस्ति.
कामदेवस्य बाणः अस्ति. We could make be creative and try to say add something if you can, that would be good.
Kamdevasya banah nasti.
Rameshnam shuddham asti. So Ramesh Mohde, can you make a sentence with Ganeshah बाणः?
गणेशः गणेशस्य बाणः तस्य एव अस्ति.
समीचीनं, बहु समीचीनं. सो गणेशस्य बाणः तत्र एव अस्ति. अस्तु, सो दीस् वर् द वन्स् वित् ending in akaranta. So now we can say Ramaha patni, Ramasya patni Sita asti. Ramasya patni Sita. We will do the other way round as well. Sita yaha pati Ramaha. But let's do the first pulingaha akaranta. So Krishna patni, let's start from the bottom this time. Ramesh Mohde.
Krishnasya patni hi Rukmini.
Krishnasya patni Rukmini. Or do you know the other way around as well?
Rukminyaha pati hi Krishnaha.
Samishnam. Next Krishna Mohde. Mohde. Obama
Michelle.
Michelle Asti. Vimla Pagini, next one.
Dasaratasya Patni Kaushalya. Kaushalyayaha pati hi Dasharataha.
Samichnam. But we were doing the putra, sir.
Oh, Dasaratasya. Here we said patni, correct? Yes, we are telling you.
Putra.
Okay. Dasaratasya putraha Ramaha.
Ramasya pita?
Dasarataha.
Next is Sujata Bhagini. Janakaha putri.
Janakasya putri.
Janakasya putri janani.
Janani.
So, do you want to try the other way around?
Janakaha pita. Janakaha.
Jananyaha pita janakaha. Next is Sujata. No, Anjana Bhagini.
Arvindasya karayanam nasti.
Arvindasya kari. No. Arvindasya kayanam nasti. Samichnam. Next is Bhanumati Bhagini, which just message me Bhagini when you are ready. Sangeeta Bhagini, next one. Skandaha Vahanam.
Skandasya Vahanam Mayura Asti.
Skandasya Vahanam
Mayura Asti.
Astu. So you get the idea that it is here. So we will do the next one. So now you can ask a question as well. Kasya Patni Sita. Ramasya Patni Sita. Esha becomes etasya. Etasya varnaha raktam. Etasya varnaha rakta. Kaha.
His echo is very high. Some kind of sound is coming. Some background noise is there.
Somebody is
Bhagini, Anjana Bhagini, I think you are one of, you are locked into two places and one is causing some...
No, one, I from iPad, I'm just looking the without audio, the whatever you are slide, and with the phone and with the audio.
Yeah, same, I am doing the same here.
Okay. Yeah, because that is better so I can read it properly.
Yeah, exactly. So let's continue. The echo is gone now. So we could use like saha asti, eshaha asti, kaha asti. So same way we can use graham asti, tasya graham asti, etasya bhagini asti, kaha asti, kasya nama Sita asti, oh sorry, kasya nama Ramaha asti, kasya nama Govindaha asti. Shamyatam. Kasya nama Govindaha asti. Is it better now? Not moving out of my screen. Astu. Okay, so it's not moving away from my screen. Astu. Tasya graham asti. Etasya bhagini Sita asti, kasya nama Ramaha asti. So you can add any of the prashnavachak shabdaha along with in possessive voice as well. So we will do little practice. We are okay with the So now let's practice little bit with the neuter shabda, nipunsaklinga. So it is easy for us because it's also using sya, patrasya, patra pushpasya. So we will do few sentences in this and then okay, after this we will move to the Istrilinga, that is a lot in that. So you can make one sentence. Let's say phalam, starting off with Ramesh Mohde. Phalasya nama. Or pushpasya nama, you could use any...
Palasya nama ha, amra palaha.
Etasya falasya nama...
Amra palaha.
Amraha falaha asti. Amra falam asti. Etasya...
Namam, amra palaha.
What I'm trying to say is etasya phalasya nama amraha phalaha asti. So nayanam. Let's do Naresh Mohde. Nayanam. Any sentence would do. Okay, so you think of a sentence.
Nayanasya Prabhu Vasti.
Nayanasya Varnam Krishnaha Asti. Because we can't say Nainasya Prabhu Vasti. Because that is Saptami Vibhakti. Because it lives somewhere,
in that,
let's try. I think Kamala Bhagini and Naina Bhagini also, Bhagnyoho, Api Upyujyate, and Mekhala Bhagini.
Can I see the screen? Just I come in the by my phone. Can I see the screen? So it's hard for me this time. Next time I will try to see the screen.
Astu. Chinta mastu bhagini. Next time, Naina bhagini. Kamala bhagini, vaktum shakyate va bhagini?
Yes, I just joined, so I'm not understanding what is to be done.
Okay, astu. And also Mekhala Bhagini, I will come back to you as well later, little bit. Netram. Start with Netram. Vimala Bhagini? Netram.
Netrasya Varnaha Krishnaha Asti. Is it correct?
Correct, but I just made that Nainam Nainasya. So try to listen.
Netrasya. Etasya netram vishalam asti.
Etasya netrasya. Etasya netram vishalah asti.
Vishalah asti.
Netram vishalam asti.
Okay. Kasya netram sundaram asti.
Samichnam bhagini, bahu samichnam. Toyam. Sujata bhagini.
तो ये तस्य तो यस्य पात्रम अस्ति ये तस्य
तस्य क्या व्हाट विल बी द ट्रांसलेशन इति उक्ते
दिस वेसल इज
पात्रस्य तोयमस्ति
पात्रस्य तोयमस्ति
ओके एतस्य पात्रस्य तोयमस्ति
एतस्य पात्रस्य
इट इज ऑफ दिस वाटर इज ऑफ दिस वेसल
ओके
सो वी कुड से
तोयमस्ति
तोयम् मधुरम् अस्ति
बट् वी आर् ट्रैङ्ग् टु मेक् तोयम् पोसेसिव् वर्ड् तोयम् तोयस्य
रुचि
वर्णम् ओ वर्णं नास्ति
यस्य रुचि समीचीनम् अस्ति
रुचिः अस्तु संगीता भगिनी बोल् यु हव् डन् इट् रैट्
पर्णमस्य वर्ण हरित अस्ति
समीचीनं पर्णस्य वर्णः हरितः अस्ति कन्दुकः अञ्जना भगिनी
कन्दुकस्य कः अस्ति
कन्दुकः कः अस्ति
कन्दुकः कः अस्ति कंदुकः मैदा
कस्य कस्य
कंदुकः कस्य कस्य but if I want to reply then कंदुकः वनम
मैगने नाशुएते
कंदुकः कस्य अस्ति कंदुकः कंदुकस्य वनम
अस्ति प्लीज एवरीबॉडी कैन म्यूट यू कैन म्यूट जस्ट कीप इट म्यूटेड अनलेस यू आर स्पीकिंग So I can't hear, there is lot of noise. So, now we can hear. Anjana Bhagini, Punha Vadatu.
Kandukasya, Kasya Asti, Kandukasya, Vanam Asti.
इति उक्ते
मैदान व्हाट कैन यू से इन इन संस्कृत मैदान फुटबॉल
क्षेत्रम
क्षेत्रम कंदुकस्य क्षेत्रम अस्ति
इति उक्ते व्हाट डज दैट मीन कंदुकस्य कंद ऑफ द बॉल field is there. It does not make any sense, right? It does not mean anything. Like, kandukasya akaraha. Akaraha gola to nahi hota, but vritam asti.
Akaraha means kya?
Akaraha. Vritaha asti. Vrita. Yeah? Round.
Round. Oh, round.
Yeah? So when you are saying kandukasya akaraha, vritaha asti.
Akaraha means round, right?
Hmm. Akaraha means shape.
Huh? Akaraha.
So? Okay. So when we are saying kandukasya akaraha, so we are saying ball's shape. Yeah? Ball ki shape jo hai, that is vritaha vritam asti. Yeah? Is that clear?
Kandukasya varnam raktam asti.
रक्तम् अपि अस्ति रक्तमपि रक्तं सेल्स् रक्तम् नो सोरि भगिनि कमला भगिनि चिबुकं
हलो
हा चिबुकं हा ऐ केन् हियर् यु
what is to be done?
Chibukam is chin.
Chin. I have to make a sentence with this?
Try it. Chibukam.
Chibukam. Chibukam.
Chibukasya.
Chibukam. Chibukasya.
Just to say this a word, Chibukam, what will be the Shashti Vibhakti for that? Like Pushpam, Pushpasya. Chibukam.
Okay. Chibukasya.
Chibukasya. Chibukasya. Then you can do anything after that. Chibukasya. अकारः चिबुकस्य वर्णः चिबुकस्य Yuchibukasya, what else you can say? Akaraha, I don't know. I have to think. So at least you can say akaraha, chibukasya akaraha, chibukasya raktaha.
Lips are above the shvetaha
asti. Bhagini, puna vadatu, puna vadatu.
Round,
think of it. Think during the week. How would you make it? Okay. So, annam. So you can make like this. It will take long time. I will give that as a homework to make these sentences.
Okay.
So we can practice some of the. So there is graham and dwaram. That might be easy for you guys to do it now. Grahasya dwaram, falasya bijam, mitrasya patni. So let's see some of the new people. Kamala Bhagini, do you try this one? Vahanam chalakaha. Are you able to make a sentence, with this?
Vahanam chalakasya. No, I'm not able to make sentence.
Astu, chinta mastu bhagini, chinta mastu bhagini, mastu bhagini.
Excuse me,
Ramesh Mohde, Ramesh Mohde.
Namaste bhagini.
Yes,
Vahanasya, vahanasya chalakah, vahanasya chalakah, samyak chalayati.
Vahanasya chalakah.
Excuse me. Vahanasya chalakah chaturaha asti.
Samichnam. Samyak chalati. I could say anything. So Vimla Bhagini, Bharatam adhyayah.
Bharatasya ashtadasa adhyayah asti.
Mahabharatasya
ashtadasa
adhyayah
asti.
Santi.
Oh, sorry. Mahabharatasya ashtadasa adhyayah santi.
Samichnam bhagini. So, anybody else want to say? One sentence.
Who hasn't spoken before?
Can you say pustakam putaha?
What is meant by putaha?
Page.
Putaha is like page number or page. Pustaka.
Pustakasya shashti putaha santi.
Yes. If you are using plural, then it will be Santi. Okay. Anybody else who hasn't spoken? I think everybody else has spoken. So now we go to the Istrilingam. So we have done the Pulingaha. Then we did the Nipunsaklingaha. Now we will see some of the Akaranta, Ikaranta, Ukaranta for Istrilingaha Shabdaha. So in Istrilingaha, you add Yaha in the end, like Sita, Sita, Yaha, to make a possessive Shabdaha. Sita Yaha, Sita Yaha, Pati Ramaha. So if we have to say Mala, Mala Yaha, Patihi Krishnaha. Oh, any Mala Yaha, Pati Neerajaha. So when it is Bala, Balayaha Pati, or Balayaha Namaha, Balayaha Namaha Radhika. So when we use Bhavan and Bhavati, then Bhavati, Bhavatyaha becomes, Bhavan becomes Bhavataha. So we have done already those. So when we have to ask a Prashnavachak Shabdaha, so for Istriling, we already know that it is Ka. Ka becomes Kasyaha. Sa becomes Tasyaha. So we have just done in the few minutes ago, what will be for Pulling Shabdaha? Puling Shabdaha for Prashnavachak Shabdaha is Kaha. So what will become for Prashnavachak Shabdaha? Kasyaha. 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 So Mahila Asti. Wow. Here, Mahila Asti wa. Chitram Drishtva, Kripya Vadutu.
Asti, Mahila Asti.
Ha, Kopi Api Vadutu, Namahana Avyami.
Am Mahila Asti.
Mahila Yaha. I think it doesn't work because there is Pratidhvani Asti. Bahu Pratidhvani Asti. So, Mahila Yaha Ungliyakam Astiva. Mahila Yaha Ungliyakam Astiva.
Aam Asti.
वामतः हस्ते अस्ति वा दक्षिणतः हस्ते अस्ति
वामतः
भग्न्याः दक्षिणतः हस्ते अंगुलीयकम् अस्ति कस्याः उंगुलीयकम् अस्ति
महिलायाः
उङ्गुलीयकम् अस्ति अत्र भानुमति भगिनी अस्ति सङ्गीता भगिनी अञ्जना भगिनी सुजाता भगिनी and Naina Bhagini, Kamila Bhagini cha, Vimla Bhagini, Atra Santi. So you will see lot of them are Akaranta, except Bhanumati Bhagini. everyone is akaranta. Mama naam api akaranta. Mama naam Anuradha. So Anuradha yaha. So you can make a sentence. Pathyakramaha.
Pathyakramaha.
Bahu samichnam asti. अस्तु संगीता भग्न्याः संस्कृतं
संस्कृतं
भग्नि वदतु
भग्नि वदतु
वदतु का वदतु
संगीता भग्न्याः संस्कृतं समीचीनमस्ति
नमस्ते
अस्तु अस्तु So now when it ends with E, E, E karanta, dirgha E karanta, so it becomes nadyaha, nadi nadyaha. So what happens is E is removed, and when E is removed, it becomes nad. Then you add yaha. So you've seen in Sita, we don't remove the it's bala. So it becomes bala yaha. But in Nadi, it becomes nadyaha. E is removed and yaha is added. It's just something you have to remember at this stage. So here ka kasyaha we've already done nadi astiva nadyaha naam kim atra nadi astiva nad tasyaha nadyaha naam kim You could say etasyaha nadyaha naam kaveri. Sa kaveri. That is kaveri. Then it will be tasyaha upari kim asti. Tasyaha upari akashaha asti. So then we can practice. You can make your own sentence. Krishika, Seniki, Arakshika, Vaidya, Chitrakari, Bharvahi, Charamkari. So let's start with Sangeeta Bhagini. Krishika, just say the Shashti Vibhakti without making a sentence. Just Krishika.
Krishikaya.
Krishika.
Krishikaya.
Krishikayaha.
Krishikayaha.
Complete. Vimla Bhagini. Sainiki.
Sainiki.
Sainikayaha.
Sainikyaha.
Sainikya, okay, Sainikyaha.
It's like Nadyaha.
Oh, sorry.
Sujata Bhagini, Arakshika.
Arakshikaha.
Arakshikaya. Yaha.
Yeah.
Arakshikayaha.
Yeah.
Anjana Bhagini, Vaidya. Vaidya.
Vaidya.
Kamala Bhagini? Krishika. Can you say Krishika?
Krishika. Okay, Krishikaha.
Krishikayaha.
Krishikayaha. Okay, yeah. You add yaha.
Ramesh Mohde, Chitrakari.
चित्रकार्याः
चित्रकार्याः समीचीनं नरेश महोदय भारवाह्याः भारवाह्या नेक्स्ट इज हु इज नेक्स्ट कृष्णमहोदय चर्मकारी
चर्मकारयः
चर्मकारयः सो एव्री टाइम यू विल से रिमूव द ई इन द एंड एंड एड याः चर्मकारयः चर्मकारयः मेक सेंस
डू वी बिकॉज़ रेफा हो लाइक विद द अ चर्मकार और चर्मकारया
Remember that in Sanskritam, you can't say any consonant without any swara. When you are adding, removing the e, it becomes half-ra. Here it will become half-ha.
Okay.
Half-ra. So you will say riyaha.
Riyaha. Okay.
Charmakaryaha. Bharvahyaha. Chitrakaryaha. Ved. It's a ved, vedyaha. Vedya, if it's a vedyaha, pulingaha, then it will be vedyasya. Here it's vedya, so vedyaha. Vedyaha. It will be kind like a sita. Vedyaha, because it's akaranta.
Okay.
So let's do let's try Bhanumati Bhagni again because there is whenever I am unmute there is echo but we'll try karamkari
karmakaryaha
समीचीनं भगिनी
नर्तक्याः
समीचीनं संगीता भगिनी नेक्स्ट् वन्
लिपिकार्याः
समीचीनम् अञ्जना भगिनी नटी
नट्याः
सो धीवरी रमेश महोदय
धीवर्याः
स्वर्णकारी
नरेश
महोदय
समीचीनं सो यु सी दट् अप्निकायाः विक्रयिकाः ग्रहिकायाः क्षम्यतां सो वी केन् मेक् सेण्टेन्स् So for abhyasasya krite atra shabdaah santi abhyasasya krite tantra nyaah ekam vakyam rachyatu bhavan रमेश महोदय एकं वाक्यं रचयतु तन्त्रज्ञाः
तन्त्रज्ञायाः कृते चित्रः अस्ति
तन्त्रज्ञाः
तन्त्रज्ञायाः कृते नक्षः अस्ति
कृते ऐ जस्ट् सेड् कृते जस्ट् लैक् नार्मल् कन्वर्सेशन् कृते वि वर् नाट् लर्निङ्ग् कृते टुडे एनिवे बट् यु केन् यूस् कृते शब्दः वेरि वेल् वित् षष्टिविभक्ति सो अभ्यासस्य कृते अत्र शब्दाः सन्ति जस्ट् ऐ सेड् दिस् सेण्टेन्स् टु लिटल् बिट् स्पीक् इन् संस्कृतम् So, Tantragyaha, so we could make a sentence with that, without using Krite. So, Tantragyaha, Nama.
Tantragyaha, Nama.
You could use any name.
Baba.
Samichnam. Next.
Bhagini, Tantrajnyaha matlab?
Engineer, it's written here. It's written here.
Well, it's not visible for me.
Also. You could, with the two fingers on the phone, you could expand. If it's not clear. Because I can see on my phone.
Yes.
Okay. Sujata Bhagini, Gopalika. Sorry.
Gopalikayaha. Chitram Tatrasti.
Samichnam.
कृष्णमहोदयः नाम लता अस्ति
समीचीनं विमला भगिनी
अध्यापिकायाः नाम अनुराधा अस्ति
समीचीनं कमला भगिनी चालिका
चालिकायाः नाम किम् अस्ति
समीचीनम् सुजाता भगिनी लेखिकायाः
चित्रं कथमस्ति
लेखिकायाः
कथमस्ति
भगिनी पुनः वदतु
लेखिकायाः कथा कथम् अस्ति
लेखिकायाः
कथा
कथा कथमस्ति ओके नेक्स्ट् वन् इस् अञ्जना भगिनी प्रबन्धिकायाः भगिनी न श्रूयते सम्यक् न श्रूयते
हलो केन् यु हियर् मी
ऐ केन् हियर् यु बट् एको इस् देर्
सम्बडि इस् म्यूट् इस् ओपन् देट् वै या प्रबन्धिकायाः
प्रबन्धिकायाः कार्यं कथमस्ति? प्रबन्धिकायाः कार्यं सम्यक् नास्ति.
कार्यं कथम् अस्ति?
Okay. Yeah, you could make something different. Think of it. And yeah. Sangeeta Bhagini.
For the store manager, like...
Deshikaya Peetham Patra Asti.
Yeah, Prabandhikaya Patram Kutra Asti. Prabandhikaya Graham Kutra Asti. प्रबन्धिकायाः केशाः कृष्णः अस्ति. अस्तु भानुमति भगिनी, ऐ एम् गोयिङ्ग् टु अन्म्यूट् यू.
निर्देशिकायाः कार्यालयं दिल्ली मध्ये अस्ति.
देहली नगरे अस्ति.
दिल्ली नगरे
अस्तु. सो वी केन् मेक् ओल् दिस् सेण्टेन्स् लेट्स् डू द बिट् मोर् प्राक्टिस् षष्टि विभक्ति इन् इन् साङ्ग् Can you all see the song?
Ha.
So you will see the... Shashti Vibhakti here as well. Bhagini, Nila Bhagini, can you read one line?
पाटलवर्णं पाटलपुष्पं हरितं हरितं तस्य च पर्णम्.
पाटलवर्णं पाटलपुष्पं हरितं हरितं तस्य च पर्णम्. संगीता भगिनी, can you read the next line please?
नीलं नीलं खलु आकाशं धूसरवर्णम् अभ्रं च.
समीचीनं. नीलं नीलं खलु आकाशं धूसरवर्णम् अभ्रं च. अञ्जना भगिनी, नेक्स्ट् लैन्.
रक्तं रक्तं दाडिमं पीतं पीतं आम्रफलम्.
सो रक्तं रक्तं च अस्ति. इस् चास्ति बिकम् चास्ति. रक्तं रक्तं चास्ति तडिमं पीतं पीतम् आम्रफलम्. अस्तु रमेश महोदय.
नारङ्गफलं केसरवर्णं नीललोहितं जम्बूफलम्.
समीचीनम्. अस्तु कृष्णमहोदय, लास्ट् नेक्स्ट् लैन्. कृष्णमहोदय.
श्वेतं श्वेतं बक्द्वये बक्द्वयं कृष्णं कृष्णं काकद्वयम्.
श्वेतं श्वेतं बक्द्वयं रे कृष्णं कृष्णं काकद्वयम्. सो एनीबडी एल्स हु इज नॉट रीडिंग? नरेश महोदय, नेक्स्ट लाइन.
वन्दतु वन्दतु कपिशं कीशत्वरं वन्दतु कपिशं कीशत्वरं kapisham kapisham chakaleham.
Samichanam. So let's try to do the lead and follow, and then we will try to sing it together so that we get into the tune. पातल वर्णम पातल पुष्पम हरितम हरितम तस्य च पर्णम पर्णम
नील नील
विदाउट लुकिंग एट इट Try to sing it together. Let's try again.
From the beginning. Khalu akasham. Dhusara varnam. Ambram cha.
Stop.
पाटल वर्णम पाटल पुष्पम
हरितम हरितम तस्य च पर्णम नीलम नीलम खलु आकाशम धूसर वर्णम अभ्रम च रक्तम चास्ति ताडिमम पीतम आम्रफलम नारंग फलम केसर वर्णम नील लोहितम जंबुफलम श्वेतम बक द्वयम रे कृष्णं काकद्वयम् वदन्तु कपिशं किं सत्वरम् कपिशं चाकलेहम् You have seen that here we have haritam haritam tasya cha parnam. So we have seen that vibhakti. Also there is a shabd like khalu. So when we use the khalu is used like isn't it? When we say like this is red, isn't it? So we have used here neelam neelam akasham. It's like blue sky, isn't it? So that is the meaning. Also, you see in the last line, it says bak dvayam. Kakdvayam. So reason is, when you use dvayam in the end, so you can still use ekvachanam. Like kakdvayam asti.
Lot of echo.
Yeah, there is lot of echo. Otpati dvani. Better now?
Yes, better now.
So we were saying, like, when we use dvayam in the end, so then we don't have to use dvivachnam. We can still use dvayam asti or kakatrayam asti. We don't need to use santi, asti or santi. We will just use asti, bak dvayam asti. So these were the two things that we noticed. There is still a lot of noise from somewhere.
Does that mean that vaka, there are two vowels?
So now we've just you can see the meaning of the song that we just done. Patal Varnam is, patal is pink. Dhumra Varnam is like brown or
white.
Dhumra. So Narang Phalam, Kshamyatam. Amra Phalam, Kaha Amrasya Varnaha, Kaha Amrasya Varnaha Pitam Asti, or Pitaha Asti. Yeah. Kakasya Varnaha Kopi api vadatu.
Kakasya varna Krishnaha asti.
Kakasya varnaha Krishnaha asti. Bakasya varnaha kaha asti.
Bakasya varna Shveta asti.
Bakasya varnaha Shveta asti. Chakleha. Kopi api vadatu, chakleha shabdaha upayujya ekam vakyam rachyatu.
Chakalekasya varnam kapisaha.
Samichnam. Kapisaha asya varnaha chokleha masti or choklasya varnaha kapisaha asya. Jambu phalam.
Jambu phalas. Jambu phalasya varnah. Neelohitamasti.
So. Now we will see Shashti Vibhakti. So these are some of the shabdas that we've done. So we can finish here. Sarve Malitva Gayantu.
Sarve bhavantu sukhinah.
Sarve
santu
niramayah. Sarve
bhavantu pasyantu
shanti shanti
shanti.
धन्यवादः अग्रे सह मिलामः.
धन्यवादः भगिनी.
शुभरात्रि.
भगिनी,
but
can we get all these slides for practice?
I sense a slight over it.